एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। प्रधानमन्त्रिणा केपी शर्मा ओलिना नेपालम् आगतेभ्य पर्यटकेभ्य कथमिदमपि विधिगतम् प्राशासनिकम् वा कष्टम् न प्रदातुम् सम्बद्धाधिकारिणः निर्दिष्टाः वर्तन्ते। संस्कृति पर्यटन नागरिक उड्डयन मन्त्रालयेन ह्य सिंहप्रासादे आयोजिते राष्ट्रिय पर्यटन संवादे प्रधानमन्त्री ओली विद्यमानावरोधान् निरस्य सुशासन विकासयोः कार्याणि अग्रे वर्धयितुम् व्यापक सुधाराय निरदिशत। अध्यागमन विभागे यात्रिभ्यः अनावश्यक दुःख प्रदानस्य वस्तुनाम् विलोपनस्य सीमा प्रवेश बिन्दुषु पर्यटकानाम् प्रवेशनस्य समये अनेक व्याजैः दुःख प्रदानस्य च कार्याणि समापनीयानीति प्रधानमन्त्री ओली बलम् प्रादात्। प्रधानमन्त्री ओली नेपालस्य आकाशः सुरक्षितोऽस्ति परम् अधुनापि यूरोपस्य आकाश नेपालस्य कृते कलंकसूच्यां वर्तते इत्यतः कलंकसूचितः नेपालस्य आकाशस्य अपाकरणाय निर्धारित मापदण्डानि पूरयितुम् उड्डयनक्षेत्रस्य निकायद्वयम् अविलम्बम् परस्परं पृथक् कर्तुम् अन्यानि मापदण्डान्यपि शीघ्रं पूरयितुम् च सम्बद्ध निकायान् निरदिशत। संघस्य सम्बद्ध मन्त्रिणाम् प्रदेश सर्वकाराणाम् पर्यटन मन्त्रिणाम् नैजक्षेत्रस्य प्रतिनिधीनाम् च सहभागितायाम् आयोजिते कार्यक्रमे पर्यटन क्षेत्रे विद्यमान समस्यानाम् तथा तेषाम् समाधानस्य उपायानाम् च विषयेष् नैजक्षेत्रात् प्राप्तानि परामर्शनानि अपि समाविश्य निर्मिता कार्ययोजना प्रस्तुता आसीत्। सत्तारूढेन नेपाली कांग्रेस दलेन देशान्तर गमनानुज्ञा पत्र प्रकरणे गृहमन्त्रिणः रमेश लेखकस्य संलग्नता नास्तीति निष्कर्ष प्रकाशितो वर्तते। बुढा नीलकण्ठवर्तिनी सभापतेः देवाविधस्य निवासे ह्य उपविष्टस्य पदाधिकारिणाम् उपवेशस्य अनन्तरं प्रवक्ता डा प्रकाश शरण महत प्रकरणेऽस्मिन् गृहमन्त्रिणः संलग्नतायाः पुष्टि न भवति त्यतः गृहमन्त्री निर्दोषो वर्तते इति चर्चयन् सामाजिक सञ्जालेषु विहितस्य दुष्प्रचारस्य कारणेनैव त्यागपत्रम् न प्रदेयमिति निष्कर्षः उपवेशेन प्रकाशितोऽस्तीति असूचयत्। अध्यागमन विभागे अधिकार दुरूपयोग अनुसन्धानायोगस्य अनुसन्धानस्य अन्येषाम् विषयाणाम् च सन्दर्भे संसदि बहिश्च गृहमन्त्रिणा एव स्पष्टीकरणम् प्रदास्यते चेति डा महत असूचयत्। नेकपा माओवादी केन्द्रेण दर्शनार्थम् देशान्तर प्रवेशाज्ञानुज्ञापत्र प्रकरणे गृहमन्त्रिणः रमेश लेखकस्य त्यागपत्रम् याचितमस्ति। नेकपा माओवादी केन्द्रस्य अध्यक्षस्य पुष्पकमल दाहाल प्रचण्डस्य खुमलटारवर्तिनी निवासे ह्य उपविष्टेन पदाधिकारिणाम् उपवेशेन देशान्तरम् गमनाय प्रवेशाज्ञानुज्ञापत्रस्य भ्रष्टाचारस्य प्रकरणे अनुसन्धानम् प्रारब्धमस्तीत्यतः गृहमन्त्रिणा लेखकेन त्यागपत्रम् प्रदाय मार्गः प्रशस्तीकरणीयः इति निष्कर्षः प्रकाशितोऽस्तीति माओवादी केन्द्रस्य प्रवक्ता अग्निप्रसाद सापकोटा असूचयत्। अध्यागमन विभागस्य माध्यमेन नेपालीनाम् पर्यटक पारपत्रस्य माध्यमेन विदेशेषु प्रेषणे भ्रष्टाचारः विहितोऽस्तीति विषये गृहमन्त्री गृहमन्त्रालयस्य कर्मचारिणश्च संलग्नाः सन्तीति चर्चा चयन निष्पक्षम् अनुसन्धानम् विधातुम् दलेन याचना विहिता स्थिति प्रवक्ता सापकोटा असूचयत। राष्ट्रिय स्वतन्त्र दलेन दलसभापते रवि लामी छाने विधस्य विषये सर्वोच्च न्यायालयेन प्रदत्तस्य आदेशस्य पालना विधीयते इति ज्ञापितमस्ति। राष्ट्रपा दलस्य केन्द्रीय समित्या दलसभापतेः लामिछाने विदस्य विरुद्धे राजनीतिकः प्रतिशोधः विधीयमानोऽस्तीति आरोप्य प्रतिशोधस्य विरुद्धे वृहद अभियानम् प्रारब्धुमपि निर्णीतमस्तीति दलस्य कार्यवाहक प्रवक्ता मनीष झा अज्ञापयत्। पर्यटनार्थम् देशान्तर प्रवेशाज्ञानुज्ञापत्रस्य भ्रष्टाचारस्य प्रकरणे गभीरेण अनुसन्धानाय याचनाम् विधाय दोषिणाम् दण्डनाय संसदि प्रभावकारी रूपेण प्रस्तुतम् भवितुम् केन्द्रीय समित्या संसदीय दलम् निर्दिष्टम् च वर्तते। नेपाली कांग्रेस दलस्य सभापति शेरबहादुर देउवा निगदति गुणस्तरीयायाः शिक्षायाः व्यवस्थां विदाय वैदेशिकानां छात्राणां कृते नेपालः शिक्षायाः केन्द्रत्वेन विकसनीयः। नेपाली कांग्रेस दलस्य शिक्षा विभागेन ह्य काष्ठमण्डपे आयोजिते शिक्षानीति विषयक कार्यक्रमे सभापति देउवा शिक्षाया गुणस्तरस्य सुधाराय स्वदेशीयानां छात्राणां देशे एव स्थापनस्य वैदेशिकानां छात्राणाम् आकर्षणस्य च नीति निर्माणाय प्रतिबद्धतां व्यक्तवान्। विभागस्य प्रमुख नयन सिंह महर शिक्षाम् अनुसन्धानमुखाम् विधातुं नीति निर्माणस्य आवश्यकताम् प्रादर्शयत। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ भाषते आगामिनः आर्थिक वर्षस्य आयव्ययकस्य विनियोजनम् आयोजनायाः वर्गीकरणस्य प्राथमिकतायाश्च आधारेण विधीयते। काष्ठमण्डपे ह्य आयोजिते लमजुङ जनपदस्य दोदी ग्रामपालिकायाः प्रगति विवरणस्य प्रस्तुतेः आयव्ययकाय परामर्श संकलनस्य च कार्यक्रमे अन्तरक्रियायां च मन्त्री गुरूङ क्रियान्वयनाय अशक्याः आयोजनाः निरुत्साहनीयाः इति अगदत। सर्वकारस्य प्रवक्ता च मन्त्री गुरूङ अधिक वित्तस्य व्ययीकरणेऽपि अस्तव्यस्ताः योजनाः बह्व्यः सन्तीत्यतः तासां पूरणाय आयव्ययकेन प्राथमिकता प्रदीयते इति प्रावोचत। हुम्ला जनपदस्य नामखा ग्रामपालिकायाः षष्ठवडा क्षेत्रस्य तिलग्रामे जलविप्लव भूस्खलनयोः कारणम् अन्वेष्टुम् हुम्ला जनपदम् प्राप्तेन अनुसन्धान समूहेन त्रयो हिमरदाः सन्ति ती निष्कर्षः प्रकाशितो वर्तते। ज्येष्ठस्य प्रथमे दिवसे दुरापन्नयोः जलविप्लव भूस्खलनयोः कारणम् अन्वेष्टुम् खनि भूगर्भ विभागस्य वरिष्ठ भूगर्भविदः शिवकुमार बास्कोटाविदस्य नेतृत्वे गतेन त्रिसदस्यीय समूहेन पञ्चसहस्र मिटरमिते उपरि त्रयो हिमरदाः प्राप्ताः वर्तन्ते। नामखा ग्रामपालिकायाः षष्ठवडा क्षेत्रस्य तिलग्रामे शिव ज्येष्ठस्य प्रथमे दिवसे सहसा दुरापन्नेन जलविप्लवेन अष्टादश गृहपरिवाराः विस्थापिताः आसन्। सुनसरी जनपदस्य झोक्राह नरसिंह ग्रामपालिकायाः तृतीयवडा क्षेत्रवर्तिनी फूलचोक स्थाने ह्य ट्याक्टर यानस्य प्रहारात् जनद्वयम् मृतम् वर्तते। पश्चिम दिशा पूर्व दिशं प्रति प्रस्थीयमानेन ट्याक्टर यानेन मोटरसाइकल यानम् प्रहृतम् सद इनरवा नगरपालिकाया दशम वडा क्षेत्रस्य विंशति वर्षीय सर्पराज अन्सारी हरिनगर नगरपालिकाया प्रथम वडा क्षेत्रस्य एकविंशति वर्षीय सजित अन्सारी च मृत इति प्रहरिणा ज्ञापितम् वर्तते। इति समाचारः।